अथ श्रीरामद्वादशनामस्तोत्रम् प्रथमं श्रीकरं विद्याद्वितीयं दाशरथ्यकं तृतीयं रामचन्द्रं च चतुर्थं रावणान्तकं पञ्चमं लोकपूज्यं च षष्ठकं जानकीप्रियं सप्तमं वासुदेवं च राघवेन्द्रं तथाष्टमं नवमं पुण्डरीकाक्षं दशमं लक्ष्मणाग्रजम् एकादशं च गोविन्दं द्वादशं सेतुबन्धनम् एतद्वादशनामानि त्रिकाले यः पठेन्नरः दारिद्र्यदोषनिर्मुक्तो धनधान्यसमृद्धिमान् जनवश्यं राजवश्यं सर्वकार्यफलं लभेत् अर्धरात्रे जपेन्नित्यं सर्वदुःखविनाशवान् इति श्रीब्रह्माण्डपुराणे ब्रह्मनारदसंवादे श्रीरामद्वादशनामस्तोत्रम्।